आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य चण्डीगढ़े परिवर्तनकारिणां नूतनानां त्रयाणाम् आपराधिकाधिनियमानां भारतीय न्याय संहिता, भारतीय नागरिक रक्षा संहिता, भारतीय साक्ष्य अधिनियमस्य च सकल कार्यान्वयनं राष्ट्राय समर्पयिष्यति। अवधेयास्पदं वर्तते यत् वर्षस्यास्य जुलाई मासस्य प्रथमे दिने अशेषे हि देशे कार्यान्वितानां नूतनानां आपराधिकाधिनियमानां उद्देश्यं देशस्य न्यायव्यवस्थाम् अधिकस्फटिक प्रभां कुशलं समकालीन समाजस्य आवश्यकताभिः सह संगम च कर्तुं वर्तते। तावत् कार्यक्रमस्यास्य विषयः सुरक्षितः समाजः, विकसितं भारतम्, दण्डात् न्यायपर्यन्तम्, सिक्योर सोसाइटी डेवलप्ड इंडिया फ्रॉम पनिशमेंट टू जस्टिस इति वर्तते। कार्यक्रमेऽस्मिन् एतेषां नियमानां व्यावहारिक प्रयोगः प्रदर्शयिष्यते। राष्ट्रपतिः द्रौपदी मुर्मुः अद्यारभ्य ओडिसायाः पञ्चदिवसीया यात्रा विधास्यति। यात्रावधौ राष्ट्रपतिः पण्डित रघुनाथ मुर्मुः इत्यस्य नूतन प्रतिमायाः अनावरणं करिष्यति। सममेव भुवनेश्वरे आदिम ओवर जार्पा जाहिर इत्यत्र अपि यास्यति। सा पुरी नगरस्य श्री जगन्नाथ मन्दिरे अपि पूजार्चनां करिष्यति। राष्ट्रपतिः ग्रुपबन्धु आयुर्वेद महाविद्यालयस्य 75वें वर्षस्य कार्यक्रमे नौसेना दिवसस्य उत्सवे च भागं गृह्णीयात्। सर्वोच्चन्यायालयेन दिल्ली एनसीआर क्षेत्रे तीव्रवायु प्रदूषणं निवारणाय ग्रेडेड रेस्पॉन्स एक्शन प्लान इत्यस्य चतुर्थचरणस्य अन्तर्गतं कार्यान्वितम् अभियानं तावत्पर्यन्तं सञ्चालितम् यावत् AQI इति वायुगुणवत्ता सूचकांकस्य स्तरस्य अपचितिः न दृश्यते। ऋतुविज्ञानविभागेन केरलराज्यस्य मल्लप्पुरम, कोझिकोड, वायनाड, कन्नूर, कासरगोड इत्यादिषु पञ्चमण्डलेषु रक्तवार्णिकी सञ्चेतना प्रसारितास्ति। अन्येषु चतुर्षु मण्डलेषु नारङ्गवार्णिकी सञ्चेतना प्रसारितास्ति। राज्यस्य पर्वतीय प्रदेशाः उच्चसतर्कतायां सन्ति। क्षेत्रेषु भूस्खलनस्य, आकस्मिक जलाप्लावस्य च सम्भावना विद्यते। केरलस्य तटीय क्षेत्रेषु बुधवासरपर्यन्तं, लक्षद्वीपतटेषु गुरुवासरपर्यन्तं च प्रचण्डवृष्टिः भविष्यति इति अनुमितमस्ति। मुख्यमंत्री पिनाराई विजयेन भूस्खलन संभावित निम्न क्षेत्राणां च निवासिनः दिवा एव सुरक्षित स्थानान् प्रति गन्तुम् उक्ताः सन्ति। जलाप्लाव संभावित क्षेत्रेषु निवसन्तः जनाः अधिकारिभिः स्थापितेषु सहायोद्धार शिविरेषु स्थानान्तरणाय परामृष्टाः सन्ति। पुदुच्चेरी प्रदेशे फेंगल चक्रवातस्य कारणेन जातया धारासार वर्षया न्यूनातिन्यूनं चतुर्जनाः कालग्रासभूताः सन्तीति शोकास्पदीया वार्ता वर्तते। केन्द्रीय मन्त्री डॉ मनसुख मांडविया वर्यः उक्तवान् यत् नरेन्द्रमोदी सर्वकारः स्वास्थ्यक्षेत्रम् अल्पव्ययात्मकं सुलभं च कारयितुम् इच्छन्ति। गतदिने प्रातः नवदिल्ल्यां वार्तावाहिन्यां प्रवदता डॉ मांडविया वर्येण उक्तं यत् चतुर्दशोत्तर द्विसहस्रतमे वर्षे 87-300 यावत् चिकित्सा महाविद्यालयाः आसन्, परन्तु दशकेऽस्मिन् द्विगुणिताः कृत्वा 80-700 चिकित्सा महाविद्यालयाः अभवन् इति। मरुस्थलीकरण संकटस्य सामुख्यार्थं विश्वस्य बृहत्तमं संयुक्त राष्ट्र सम्मेलनं रियाद प्रदेशे ह्यः आरब्धम्, यत्र वैश्विक नेतारः, नीति निर्मातारः, पर्यावरण विशेषज्ञाश्च अभूतपूर्वरीत्या एकत्रिताः सन्ति। पुरुष हॉकी कनीय एशिया कप प्रतिस्पर्धायाः उपान्त्यचक्रे अद्य भारतीय दलं मलेशिया दलं सम्मुखीकरिष्यति। भारतीय समयानुसारं क्रीडा इयं सार्ध 8 समारप्स्यते। अपरत्र च अद्यैव पाकिस्तान जापान दलयोर्मध्ये उपान्त्यचक्रस्य क्रीडा भविता इति वार्ताः।